एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचक उपेन्द्र दाहालः। नेकपा एमाले दलस्य अध्यक्षम् पूर्व प्रधानमन्त्रिणम् च केपी शर्मा ओलीनम् नेपाली कांग्रेस दलस्य नेतारम् पूर्व गृहमन्त्रिणम् च रमेश लेखकम् च अनुसन्धानाय पञ्चदिवसान् निग्रहणे स्थापयितुम् काष्ठमण्डप जनपद न्यायालयेन प्रहरिणे अनुमति प्रदत्तास्ति। प्रहरिणा दश दिनानि यावत् निग्रहणे स्थापयितुम् अनुमति याचिता सत्यपि न्यायालयेन पञ्चदिवसान् यावदेव निग्रहणे स्थापयित्वा अनुसन्धातुम् अनुमति प्रदत्तास्तीति न्यायालयस्य सूचनाधिकारी दीपक कुमार श्रेष्ठ असूचयत्। न्यायाधीशस्य आनन्द श्रेष्ठस्य न्यायपीठेन पूर्व प्रधानमन्त्रिणम् ओलीनम् पूर्व गृहमन्त्रिणम् लेखकम् च पञ्चदिनानि निग्रहणे स्थापयितुम् प्रहरिणे अनुमति प्रदत्तास्तीति सूचनाधिकारी श्रेष्ठ अज्ञापयत्। अत्रान्तरे नेकपा एमाले दलस्य अध्यक्षस्य पूर्व प्रधानमन्त्रिणश्च केपी शर्मा ओलीनः पूर्व गृहमन्त्रिणः रमेश लेखकस्य च निग्रहणस्य विरूद्धे सर्वोच्च न्यायालये बन्दी प्रत्यक्षीकरणस्य अभियाचन निवेदनम् पंजीकृतम् अस्ति। याचिका निवेदनम् आदृत्य अद्य श्रवणम् जायमानम् अस्तीति सर्वोच्च न्यायालयस्य प्रवक्ता अर्जुन प्रसाद कोइराला संसूचितवान् वर्तते। काष्ठमण्डप जनपद न्यायालयेन नेपाली कांग्रेस दलस्य नेतारम् पूर्व मन्त्रिणम् च दीपक खड्काविदम् सप्त दिनानि निग्रहणे स्थापयित्वा अनुसन्धानम् विधातुम् प्रहरिणे अनुमति प्रदत्तास्ति। ह्य प्रातः प्रहरिणा निगृहीता नेता खड्का नियन्त्रणावधेः वर्धनाय न्यायालये उपस्थापितः आसीत्। न्यायालयस्य सूचनाधिकारिणः दीपक कुमार श्रेष्ठस्य अनुसारेण न्यायालयेन सम्पशुद्धिकरण निवारण सम्बद्धस्य चतुष्षष्ट्यधिक द्विसहस्रतम विक्रम वर्षस्य अधिनियमस्य अनुसारेण ह्यस्तन दिवसात् क्रियान्वयनत्वेन सप्त दिनानि यावत् नियन्त्रणे स्थापयित्वा अनुसन्धानम् विधातुम् प्रहरिणे अनुमतिः प्रदत्तास्ति। सम्पत्शुद्धिकरण सम्बद्धे अपराधे अनुसन्धानस्य क्रमे निगृहीतस्य खड्काविदस्य विरूद्धे ह्य स्पष्टीकरण ग्रहणादि कार्याणाम् प्रारभणम् सदपि प्रमाणानाम् स्वीकरणस्य संकलनस्य अन्यविधानाम् अनुसन्धान कार्याणाम् च अवशिष्टत्वात् एतत् प्रयोजनाय प्रतिवादिनम् निग्रहणे स्थापयितुम् न्यायालयेन प्रहरिणे अनुमति प्रदत्तास्तीति सूचितम् वर्तते। सर्वोच्च न्यायालयेन राष्ट्रपा दलस्य सभापतिना रविलाबिन छाने विधेयन सहितानाम् प्रतिवादिनाम् सम्पत् शुद्धिकरण सम्बद्धस्य न्यायिक प्रकरणस्य संशोधन विरूद्धस्य न्यायिक निवेदनम् पूर्ण न्यायपीठे प्रस्तोतुम् आदिष्टम् वर्तते। सर्वोच्च न्यायालयस्य न्यायाधीशस्य विनोद शर्मणः अब्दुल अजीज मुसलमान इत्यस्य च न्यायपीठेन याचिका निवेदनम् श्रवणाय पूर्ण न्यायपीठे प्रस्तोतुम् ह्य आदिष्टमस्तीति सर्वोच्च न्यायालयस्य प्रवक्ता अर्जुन प्रसाद कोइराला असूचयत्। गृहमन्त्रिणा सुदन गुरूङ इत्यनेन नागरिकाणाम् वर्षाकालिक सम्भावित विपद सुरक्षायै वृष्टेः प्रारभणात् पूर्वमेव पूर्वकार्याणाम् प्रतिकार्यकार्याणाम् च योजनाम् निर्मातुम् निर्दिष्टम् वर्तते। सिंहप्रासादवर्तिनी राष्ट्रिय विपद संकट न्यूनीकरण व्यवस्थापन प्राधिकरणे ह्य आयोजिते कार्यक्रमे गृहमन्त्री गुरूङ विपद प्रतिकार्याय आवश्यक जनशक्तिम् उपकरणानि च तत्परावस्थायाम् स्थापयितुम् निरदिशत्। तदवसरे गृहमन्त्री गुरूङ नागरिकेभ्य दुःख प्राप्तेः अवस्थायाम् समस्याग्रस्त दशायाम् च राज्यस्य सर्वविध स्रोत साधनानाम् परिचालनम् विधेयम् इति उदैरयत्। संचार सूचना प्रविधि मन्त्रालयेन अनलाइन प्रविधेः माध्यमेन जायमानस्य अवैध वित्त व्यवसायस्य नियन्त्रणाय तत्सम्बद्धानि वेब सञ्जालानि वैद्युतोपकरणानि च चतुर्विंशतेः घण्टानाम् अभ्यन्तरे पिधातुम् नेपाल दूरसञ्चार प्राधिकरणम् निर्दिष्टम् वर्तते। यो मन्त्रालय उपविष्टे उपवेशे मन्त्री डाक्टर विक्रम तिमल सिन्हा अवैध वित्त व्यवसाय सम्बद्धानि ऐप नाम ध्येयानि वैद्युतोपकरणानि वेब सञ्जालानि च पिधातुम् निरदिशत्। निर्देशनेन सहैव प्राधिकरणेन तादृशानाम् वेब सञ्जालानां पिधानस्य प्रक्रिया अग्रे वर्धितास्तीति प्राधिकरणस्य सहायक प्रवक्ता डाक्टर प्रदीप पौड्यालः असूचयत। मन्त्रिपरिषदः सेव चैत्रस्य त्रयोदशे दिवसे उपविष्टेन उपवेशेन अवैधरूपेण सञ्चाल्यमानानां तथा विधानां वित्त व्यवसाय सम्बद्धानां वैद्युतोपकरणानां वेब सञ्जालानां पिधानाय निर्णीतम् आसीत्। वर्षाणां सकालस्य च देवतेति प्रसिद्धस्य श्वेतमत्स्येन्द्रनाथस्य रथयात्रा ह्यः सम्पन्नास्ति। श्वेतमत्स्येन्द्रनाथस्य रथयात्रा प्रतिवर्षं चैतशुक्लपक्षस्य अष्टमी तिथितः प्रारभते। यात्रायाः प्रारम्भम् काष्ठमण्डपस्य दरबार मार्गस्थानात् भवति चेत् काष्ठमण्डपस्यैव मच्छिन्द्रबहालस्थानम् प्राप्य रथयात्रेयम् सम्पन्नताम् याति। रथयात्रायाः प्रथमदिने गत बृहस्पतिवासरे दरबार मार्गवर्तिनी तीनधारास्थाने अर्चकैः सविधि मत्स्येन्द्रनाथस्य पूजनं कृत्वा भगवान् मत्स्येन्द्रनाथ रथे स्थापितः आसीत्। इयं यात्रा दरबार मार्गतः जमल रत्नपार्क भूटाइटी असन हनुमानढोका कालभैरव लगन आमारूख ज्यावहाल मरु नरदेवी प्रभृतिनी स्थानानि परिक्रम्य मत्स्येन्द्र बहाल स्थानं प्राप्य नास्ति। नेपाली कम्युनिष्ट दलस्य संसदीय दलस्य उपवेशेन संयोजकः पुष्पकमल दाहाल प्रचण्ड संसदीय दलस्य नेतृपदे प्रचितोऽस्ति। पेरिस डाँडावर्तिनी दल केन्द्रीय कार्यालये ह्य उपविष्टेन नेकपा दलस्य संसदीय दलस्य उपवेशेन संयोजकः प्रचण्ड दलस्य नेतृपदे प्रचितोऽस्तीति सांसदः युवराज दुलालः असूचयत्। इलाम जनपदस्य रोङग्राम पालिकायाः चतुर्थवडा क्षेत्रस्य बाखुरस्थाने भूस्खलनेन मेची राजमार्गः पूर्णरूपेण अवरुद्धोऽस्ति। ह्यः सायं भूस्खलनानन्तरं राजमार्गः असौ अवरुद्धोऽस्तीति बुधवारे स्थानीय प्रहरी कार्यालयस्य प्रमुखः चन्द्र राउत असूचयत्। चितवन जनपदे नारायणी नद्याः समीपे जलयुक्ते गर्ते निमज्ज्य किशोरद्वयं मृतमस्ति। जलक्रीडायाः क्रमे भरतपुर महानगरपालिकायाः षोडश वडा क्षेत्रस्य समन रमेलः प्रशान्त खेत्री च निमज्ज मृतौ इति चितवन जनपद प्रहरी कार्यालयस्य प्रहरी नायब उपरीक्षक रविन्द्र खनालः अज्ञापयत्। अस्य वर्षस्य दण्डपाणी नन्दकुमारी अर्ज्याल स्मृति राष्ट्रिय पुरस्कार प्राध्यापकाय डाक्टर जयराज आचार्याय प्रदत्तो वर्तते। काष्ठमण्डप विश्वविद्यालयस्य पूर्वोपकुलपतिना प्राध्यापकेन डाक्टर सुरेश राज शर्मणा ह्यः काष्ठमण्डपे आयोजिते कार्यक्रमे 50,000 रूप्यकाणां वित्तराशे पुरस्कारसौ प्राध्यापकाय डाक्टर आचार्याय प्रादात्।